दशमोऽध्यायः उपशमाष्टकम् अनेकान्तिकम् धर्मार्थकामत्रयम् सन्न्यस्य आशाम् विहाय सुखस्वरूपे विश्रान्तिमागच्छेत्युपदेशः। अष्टावक्र उवाच: विहाय वैरिणम् कामम् अर्थम् चानर्थसङ्कुलम् धर्ममप्येतयोर्हेतुम् सर्वत्रानादरम् कुरु। स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा। मित्रक्षेत्रधनागारदारादायातिसम्पदः। यत्र यत्र भवेत् तृष्णा संसारम् विद्धि तत्र वै। प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव। तृष्णामात्रात्मको बन्धः तन्नाशो मोक्ष उच्यते। भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः। त्वमेकश्चेतनः शुद्धो जडम् विश्वमसत्तथाम्। अविद्यापि न किञ्चित् सा का बुभुत्सा तथापि ते। राज्यम् सुताः कळत्राणि शरीराणि सुखानि च। संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि। अलमर्थेन कामेन सुकृतेनापि कर्मणा। एभ्यः संसारकान्तारे न विश्रान्तम् अभून्मनः। कृतम् न कति जन्मानि कायेन मनसा गिरा। दुःखमायासदम् कर्म तदद्याप्युपरम्यताम्। ओ